Buy now and make no payments until fall. That's right. At Jeff Weiler's Columbus Auto Mall, drive today with no down payment and no payments for 120 days. Whether it's a car, truck, or SUV, why wait? Shop hundreds of vehicles, all with no payments till fall. Hurry into the Jeff Weiler Columbus Auto Mall, where the deals won't wait and neither should you. Find us on Gender Road or jeffweilercolumbusautomall.com.
Samsare prachalitaha sarve dharmaha गीतायाः उपदेशस्य एव प्रतिनिधित्वं कुर्वन्ति. स्वामी श्री अडगडानन्द महाराजेन उपदिष्टायाः अस्याः टीकायाः प्रसारणाय, सुलभश्रवणाय तथा च मनसि धारणाय सुलभा एषा सीडी नाम सान्द्रमुद्रिका निर्मिता. कुतो हि भगवतो महावीरस्य, भगवतो गौतमबुद्धस्य, गुरुनानकस्य, कबीरादि महापुरुषाणाञ्च श्रद्धापूरिततपःसिद्धान्तानां सर्वोच्चतमा अभिव्यक्तिः अस्ति गीता. गीतायाः एव एतानि सान्द्रमुद्रिकारूपकुसुमानि भवतां समक्षम् आत्मदर्शनार्थं प्रस्तुतानि सन्ति. श्री परमात्मने नमः. यथार्थ गीता, श्रीमद् भगवद् गीता, अथ सप्तमोऽध्यायः. गताध्यायेषु गीतायाः प्रमुखप्रमुखाः प्रायः सर्वे प्रश्नाः साधु समुत्तरिताः. निष्कामकर्मयोगः, ज्ञानयोगः, कर्मणः, यज्ञस्य च स्वरूपं, तेषां विधेः विधानं, योगस्य यथार्थस्वरूपं, तस्य च परिणामः, अवतारः, वर्णसंकरः, सनातनः, आत्मस्थितमहापुरुषस्य कृते लोकहितार्थं कर्मकरणे बलं, तथोपयुक्तपरिगणितविषयैः सह युद्धादीनाम् अपरेषामपि विषयाणां सविस्तरं सरहस्योद्घाटनं विवेचनं कृतं श्रीयोगेश्वरेण श्रीकृष्णेन. अग्रिमेषु अध्यायेषु श्रीकृष्णः पूर्वोक्तानेकविषयसन्दर्भे नानापूरकान् प्रश्नान् समुपस्थाप्य समाधानं करोति. येषां समाधानं तथा अनुष्ठानम् आराधनायां सहायकं सिद्धं भविष्यति. षष्ठाध्यायस्य अन्तिमे श्लोके योगेश्वरेण इदं निगद्य प्रश्नस्य स्वयं बीजारोपणं कृतं यत् यो योगी मद्गतेन अन्तरात्मनां मयि सम्यक् प्रकारेण स्थितः अन्तःकरणवान् अस्ति, तमहम् अतिशयश्रेष्ठं योगिनं स्वीकरोमि. परमात्मनि सम्यक् प्रकारेण का स्थितिः? बहवः योगिनः परमात्मानम् आलभन्ते, पुनरपि क्वचित् क्वचित् न्यूनता भेलयति. लेशमात्रमपि न्यूनता नावशिष्येत् ईदृशी स्थितिः कदा आगमिष्यति? सम्पूर्णरूपेण परमात्मावबोधः कदा भविष्यति? तदुपरि योगेश्वरः कृष्णः समुदीरयति. श्रीभगवानुवाच:
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु.
पार्थ, त्वं मय्यासक्तमनाः त तदतिरिक्तं बाह्यं नहि प्रत्युत मदाश्रयः अर्थात् मयि परायणो भूत्वा योगे संलग्नः सन् नाम त्यक्त्वा नहि माम् येन प्रकारेण निःसंशयो भूत्वा ज्ञास्यसि तं तदाकर्णय यं ज्ञात्वा सन्देहलेशकणिकापि नावशिष्येत् विभूतीनां तात्कालिकबोधाय पुनः प्रकाशं प्रसारयति योगेश्वरः
ज्ञानं तेहं सविज्ञानम् इदं वक्षाम्यशेषतः यज्ज्ञात्वानेह भूयोऽन्यत् ज्ञातव्यमवशिष्यते
अहं त्वदर्थं तद्विज्ञानेन सहितं ज्ञानं पूर्णरूपेण वक्ष्यामि पूर्तिकाले यज्ञः यस्य सृष्टिं करोति तस्य अमृततत्त्वस्य प्राप्त्या सह प्राप्तव्यावबोधस्य नाम ज्ञानमस्ति परमतत्त्वपरमात्मनः साक्षात् बोधस्य नाम ज्ञानमस्ति महापुरुषेभ्यः युगपत् सर्वत्र कार्यं विधातुं या क्षमता प्राप्यते तद् विज्ञानमस्ति कथं स प्रभुः युगपत् सर्वेषां हृदये कार्यं करोति केन प्रकारेण सः उत्थापयति उपवेशयति प्रकृतिद्वन्द्वाच्च निःसार्य स्वरूपप्राप्तिं यावत् पन्थानं निर्धारयति तस्य अस्याः कार्यप्रणाल्याः नाम विज्ञानमस्ति एतद्विज्ञानसहितं ज्ञानं पूर्णरूपेण वदिष्यामि यज्ञात्वा न तु श्रुत्वा संसारे किमपि अपरं ज्ञातुं योग्यम् अवशेषं न भविष्यति जिज्ञासूनां संख्या न्यूना वर्तते
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः
सहस्रेषु मानवेषु कश्चिदेव मनुष्यः मां प्राप्तुं प्रयत्नं करोति तेषु प्रयत्नपरायणेषु योगिषु अपि कश्चिद् विरलः एव पुरुषः मां तत्त्वतः जानाति अधुना समग्रं तत्त्वं वर्तते क्व एकस्मिन् पिण्डीभूतं वर्तते अथवा सर्वत्र व्याप्तं वर्तते अतोपरि कथयति योगेश्वरः कृष्णः
भूमिरापो नलो वायुः खं मनो बुद्धिरेव च अहंकार इति यं मे भिन्ना प्रकृतिरष्टधा
अर्जुन भूमिः जलम् अग्निः वायुः आकाशं मनः बुद्धिः अहंकारश्चेत्यष्टधा मे प्रकृतयः इयमेवाष्टप्रकारा मूला प्रकृतिः
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे परा जीवभूतां महाबाहो येदं धार्यते जगत्
इयं पूर्वोक्ता अष्टधा प्रकृतिस्तु ममा परा प्रकृतिरस्ति अर्थात् जडा प्रकृतिः ज्ञेया महाबाहो अर्जुन इतो भिन्नाम् अपरां प्रकृतिं जीवरूपां पराम् अर्थात् चेतनां प्रकृतिं जानीहि यद्वारेण सम्पूर्णं जगत् धारणं कृतं विद्यते सोऽस्ति जीवात्मा जीवात्मापि प्रकृतेः संबंधे स्थितत्वात् सोपि प्रकृतिः स्वीक्रियते।
एतद्योनीनि भूतानि सर्वाणीत्युपधारय अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।
अर्जुन, इत्थम् अवजानीहि यत् सम्पूर्णानि भूतानि एतद् योनीनि नाम पूर्वोक्त महाप्रकृतिभ्यः पराभ्यः च अपराभ्यः प्रकृतिभ्यः समुत्पद्यन्ते। इमे द्वे एकमात्रे योनी स्तः। अहम् अखिलस्य जगतः प्रादुर्भावस्य तथा प्रलयरूपः अस्मि, अर्थात् मूलकारणम् अस्मि। जगतः समुत्पत्तिः मत्तः अस्ति, विलयः अपि मय्येव विजायते। यावत् प्रकृतिः विद्यमाना विद्यते तावद् अहमेव तस्याः समुत्पत्तेः मूलमस्मि। यदा च कश्चित् महापुरुषः प्रकृतेः पारं प्राप्नोति तदा महाप्रलयः अपि अहमेव यो ह्यनुभूयते। सृष्टेः उत्पत्तेः तथा प्रलयस्य प्रश्नान् मानवसमाजः स बहु कौतूहलं दृष्टवान् अस्ति। विश्वस्य विभिन्नशास्त्रेषु सृष्टिप्रलययोः रहस्यं ज्ञातुं ज्ञापयितुञ्च अनेके ज्ञानप्रयासाः प्रचलिताः प्रचलन्तः प्रचलन्ति अद्यापि। कश्चिद् वदति यत् प्रलयकाले सकलं जगन् निमज्जति। केषाञ्चिन् मते सूर्यः पृथिव्याः सन्निकटम् एतावदधिकं समायाति येन पृथिवी दन्दह्यते। केचन इमां प्रक्रियां कयामत इति कथयन्ति। तेषां मतमस्ति कयामतकाले सर्वेषां निर्णयो भविष्यति। केचन तु नित्यप्रलयस्य नैमित्तिकप्रलयस्य च गणनायां सन्ति व्यस्ताः। किन्तु योगेश्वरश्रीकृष्णस्यानुसारेण प्रकृतिः अनादिः अस्ति। परिवर्तनानि भवन्ति प्रकृतौ, किन्तु कदापि इयं न विनष्टा। भारतीयधर्मग्रन्थानुसारेण मनुः प्रलयम् अपश्यत्। अनेन प्रलयावलोकनेन सह एकादश ऋषयः मत्स्यस्य शृङ्गे नौकां निबध्य हिमालयस्य एके समुत्तुङ्गे शिखरे शरणं जगृहुः। लीलाकार श्रीकृष्णस्य जीवनोपदेशेन सम्बद्ध तत्कालीन श्रीमद्भागवतपुराणे मृकण्डुसूनुः मार्कण्डेयः प्रलयस्य प्रत्यक्षं वर्णनम् अकरोत्। सः ऋषिः हिमालयस्य उत्तरे पुष्पभद्रानदीतटे निवसति स्म। श्रीमद्भागवतपुराणस्य प्रलयसम्बद्धतत्पुराणस्य द्वादशस्कन्धस्थ अष्टमनवमाध्याययोः अनुसारेण शौनकादयः ऋषयः सूतं पप्रच्छुः, हे सूतमहाभाग, महाप्रलयकाले मार्कण्डेयऋषिः वटपत्रशयानं बालं मुकुन्दं ददर्श। किन्तु स तु मम कुले जातः, मत्तः किञ्चित् कालपूर्वम् अभवत्। तस्य जन्मान्तरं नाभवत् कोऽपि प्रलयः, न च सृष्टिः अभूत् सलीलमग्ना। सर्वं पूर्ववत् वर्तते। तदा सः ऋषिः कं प्रलयं ददर्श? सूतेन कथितमस्ति यत् श्रीमार्कण्डेयस्य प्रार्थनया प्रसन्नो भूत्वा नरनारायणौ श्रीमार्कण्डेयं दर्शनं ददौ। मार्कण्डेयः कथितवान् यद् अहं भवतः तां मायां द्रष्टुकामोऽस्मि, यया प्रेरितः अयम् आत्मा अनन्तयोनिषु भ्रमति। भगवान् प्रार्थनां स्वीचकार। एकस्मिन् दिवसे यदा मुनिः भगवच्चिन्तने तन्मयः अभवत् तदा असौ पश्यति यत् सागरः मर्यादाम् उल्लङ्घ्य ऋषेः उपरि समायाति। तस्मिन् मकराः सोल्लासं कूर्दन्ति उच्छलन्ति च। ऋषिरपि जातः प्रभावितः। सः इतस्ततः स्वं रक्षितुम् आसीत् बहुधावन्। आकाशं सूर्यः पृथिवी चन्द्रः स्वर्गं निखिलज्योतिमण्डलम् इति प्रथमवर्णितम् आकाशादिकं सर्वं तस्मिन् सागरे निमग्नं जातम्। एतस्मिन् अवसरे श्रीमार्कण्डेयः सागरे वहन्तम् एकवटवृक्षं तस्य पत्रोपरि शिशुमेकम् अपश्यत्। तस्य श्वासक्रमेण मार्कण्डेयः अपि शिशोरुदरं गतः। तत्र स्वाश्रमं सूर्यमण्डलादिकञ्च सृष्टिसहितं सजीवम् अपश्यत्। पुनश्च श्वासाक्रमेण तस्य शिशोः उदरतः बहिरागतः। मुद्रिते नयने मार्कण्डेयः स्वं तस्मिन् आश्रमे तदासने च आत्मानं प्राप्तवान्। सुस्पष्टमस्ति, कोटिवर्षाणि भजनानन्तरं सः मुनिः ईश्वरीयदृश्यं स्वहृदयान्तराले ददर्श। अन्वभवच्च बहिःस्थितं सर्वं यथावत् पूर्णमासीत्। अतः प्रलयः योगिनो मार्कण्डेयस्य हृदये परमात्मसाक्षात्कारस्य उत्कटानुभूतिः आसीत्। भजनस्य अवसाने योगिनां हृदयतः संसारस्य प्रवाहः विलुप्तः, अव्यक्तः परमात्मा एव अवशिष्यते। एष एव प्रलयः। बहिः प्रलयः न भवति। महाप्रलयस्तु विद्यमाने शरीरे एकं ब्रह्मेति अद्वैतस्य अनिर्वचनीयभावः। अयं तु महाप्रलयः क्रियात्मकः अस्ति। केवलं बुद्धिबलेन निर्णयं कर्तृमुत्सुकाः जनाः केवलं भ्रमं जनयन्ति, न समाधानम्। अत्र कामं भवन्तः भवन्तु वयञ्च वा। अत उपरि द्रष्टव्यमग्रे।
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय, मयि सर्वमिदं प्रोतं सूत्रे मणिगणाइव।
धनञ्जय, मदतिरिक्तम् अपरं नास्ति किमपि वस्तु जातम्। इदं निखिलं जगत् सूत्रे मणिनामिव मयि स्युतमस्ति। स्युतं तु अस्ति, परन्तु ज्ञानं कदा सम्भवम्? यदा अध्यायस्य प्रथमश्लोकानुसारेण अनन्या भक्त्या मयि परायणो भूत्वा योगे तथैव संलग्नो भवेत्, एतेन विना नहि। योगसंलग्नता अनिवार्या अस्ति।
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः, प्रणवः सर्ववेदेषु शब्दः के पौरुषं नृषु।
कौन्तेय, जलेषु रसोऽहमेव, चन्द्रमसि सूर्ये चाहमेव प्रकाशः, सर्वेषु वेदेषु अहम् ओङ्कारः। ओम् अधिक अहम् अधिक कारः। स्वस्य अपि आकारोऽस्मि। आकाशे शब्दः, पुरुषेषु पुरुषत्वम् अस्मि, तथा अहम्
पुण्यो गन्धः पृथिव्यांच तेजश्चास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।
पृथिव्यां पूतो गंधोस्मि तथाग्नौ तेजोस्मि संपूर्ण जीव समुदाये तेषां जीवनमस्मि तपस्विषु तेषां तपोस्मि।
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनं बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्।
पार्थ, त्वं संपूर्ण भूतानां सनातन कारणं बीजं वा मां विद्धि। अहं बुद्धिमतां बुद्धिः तेजस्विनां तेजश्चास्मि। अस्मिन् क्रमे योगेश्वरः कृष्णः कथयति।
बलं बलवतां चाहं कामराग विवर्जितं धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ।
हे भरत श्रेष्ठार्जुन, अहं बलवतां कामनां तथा आसक्तिरहितं बलमस्मि। संसारे सर्वे जनाः बलमिच्छन्ति। कश्चित् दण्ड इव भूमिं स्पृष्ट्वा उपवेशनोत्थान व्यायामेन कश्चित् परमाणुं चिनोति। किन्तु कृष्णः वदति यत् कामरागाभ्यां परं यद् बलमस्ति तद्बलम् अहमस्मि। तदेव वास्तविकं बलमस्ति। सर्वभूतेषु धर्मानुकूला कामना अहमस्मि। परब्रह्म परमात्मैव एकः धर्मः अस्ति येन सर्वं धारितं यः शाश्वतः आत्मा स एव धर्मः। या परमात्मविरोधरहिता कामना सोऽहमेव। अग्रेपि श्रीकृष्णः कथयति यत् पार्थ, माम् आसादयितुम् इच्छां प्रबोधय। सर्वाः कामनास्तु सन्ति वर्जिताः, किन्तु तं परमात्मानं प्राप्तुम् इच्छा अनिवार्या। अन्यथा त्वं साधनकर्मणि प्रवृत्तः न भविष्यसि। एतादृशी कामनापि ममानुदानम्।
ये चैव सात्विका भावा राजसास्तामसाश्च ये मत्त एवेति तान् विद्धि नत्वहं तेषु ते मयि।
अपरमपि ये सत्त्वगुणप्रसूताः भावाः सन्ति ये च रजस्तमोभ्यां जन्याः, ये सन्ति भावाः तान् मदुत्पन्नान् सम्प्रधारय। परन्तु वस्तुतः तेषु अहं मयि च ते न सन्ति। किन्तु तेषु नाहं विलीनः न च ते सन्ति मयि प्रविष्टाः। कुतो हि मम कर्मणि स्पृहा नास्ति, निर्लिप्तोऽहम्। एभ्यः मया न किमपि प्राप्तव्यमस्ति, अतो मयि प्रवेशं कर्तुं न पारयन्ति। एवं जाते सत्यपि येन प्रकारेण आत्मनः समुपस्थितौ बुभुक्षा पिपासा च अनुभूयते। वस्तुतः आत्मनः अन्नजलाभ्यां नास्ति किमपि प्रयोजनम्। तथैव प्रकृतिः अपि परमात्मनः समुपस्थितावेव स्वकार्यं कर्तुं प्रभवति। परमात्मा तद्गुणकार्याभ्यां निर्लिप्तः भासते।
त्रिभिर्गुणमयैर्भावैः एभिः सर्वमिदं जगत् मोहितं नाभिजानाति मामेभ्यः परमौ व्ययम्।
सात्विक राजस तामसांच कार्यरूप भावेन इदम् अखिलं जगद् अस्ति सम्मोहितम्। अत एव जनाः त्रिगुणात् परम् अविनाशिनं तत्त्वतः न जानन्ति। अहं त्रिगुणेभ्यः परः अस्मि अर्थात् यावद् गुणानाम् अंशमात्रमपि वर्तते समावरणं तावन् न कोऽपि मां जानाति। तेन साम्प्रतं गन्तव्यमस्ति स पान्थः अस्ति च।
दैवी येषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते।
इयं त्रिगुणमयी मम माया अतीव दुस्तरा वर्तते, किन्तु ये पुरुषाः निरन्तरं मां भजन्ति ते मायाम् इमां तरन्ति। इयं माया दैवी माया अस्ति, परन्तु प्रज्वाल्यागरवर्तिकां मायापूजने तत्पराः मा भवन्तु, अस्याः पारं गमनीयम् अस्ति।
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः मायया परितज्ञाना आसुरं भावमाश्रिताः।
ये मां निरन्तरं भजन्ते ते जानन्ति, पुनरपि जनाः न भजन्ति। मायाद्वारेण येषां ज्ञानम् अपहृतमस्ति ये आसुरीस्वभावधारणं कृतवन्तः। मानवेषु ये सन्ति अधमाः कामक्रोधप्रभावतः कुकर्मकर्तारः मूढाः न जानन्ति माम्, तर्हि के भजन्ति?
चतुर्विधा भजन्ते माम् जनाः सुकृतिनोऽर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।
हे भरतश्रेष्ठार्जुन, सुकृतिनः नाम उत्तमम् अर्थात् नियतं कर्म यस्य परिणामे श्रेयः प्राप्तिर्भवेत् तत् कर्तृणाम् अर्थार्थी नाम सकामः, आर्तः अर्थात् दुःखान् मुक्तिप्राप्तुकामः, जिज्ञासुः अर्थात् प्रत्यक्षरूपेण ज्ञातुकामः, ज्ञानी अर्थात् यः प्रवेशस्य स्थितौ वर्तते इत्युक्तचतुर्विधा भक्ताः मां भजन्ते। अर्थः तद्वस्तु अस्ति येन मम शरीरस्य अथवा सम्बद्धप्रयोजनस्य पूर्तिः स्यात्। अत एवार्थः कामनाः च भगवतैव परिपूर्यते। श्रीकृष्णः कथयति यद् अहमेव पूरयामि, किन्तु एतावानेव वास्तविकः अर्थः नास्ति। आत्मिकसम्पत्तिः एव स्थिरा सम्पत्तिः अस्ति, अयमेव अर्थः। सांसारिक अर्थस्य पूर्तिं पुनः पुनः कुर्वन् भगवान् वास्तविकार्थात्मसम्पत्त्यभिमुखं वर्धयति। कुतो हि भगवान् जानाति यद् मद्भक्तः नैतावता सुखी भविष्यति, एतस्मात् सः भगवान् आत्मिकसम्पत्तिमपि दातुं प्रारभते। लोकलाहु परलोकनिबाहु, लोके लाभः परलोके निर्वाहः च द्वावेतौ परमात्मनः वस्तुनि। भगवान् भक्तं रिक्तं न जहाति, आर्तः नाम यो दुःखी स्यात्। जिज्ञासुः समग्ररूपेण ज्ञातुमिच्छवः जिज्ञासवः, ते मां भजन्ति। साधनस्य परिपक्वावस्थायां दिग्दर्शनेच्छवः ज्ञानिनः अपि मां भजन्ति। अनेन प्रकारेण चतुर्धा भक्ताः मां भजन्ते, येषु ज्ञानी श्रेष्ठः अस्ति, अर्थात् ज्ञानी अपि भक्तः एव। एतेषु अपि
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते, प्रियो हि ज्ञानिनोत्यर्थम् अहं स च मम प्रियः।
अर्जुन, तेषु अपि मयि नित्यम् एकीभावेन स्थितः अनन्यभक्तिमान् ज्ञानी विशिष्टः अस्ति। कुतो हि साक्षात्कारेण सह ज्ञातॄणां ज्ञानीनाम् अहम् अत्यन्तप्रियः अस्मि, स च ज्ञानी अपि मे बहु प्रियः। स ज्ञानी मम स्वरूपमस्ति।
उदाराः सर्व एवैते ज्ञानीत्वात्मैव मे मतम्, आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।
यद्यपि इमे चतुष्प्रकारकाः भक्ताः सन्ति उदाराः, का उदारता? किं भवता भगवतः भक्तिकरणेन भगवान् किमपि वस्तुविशेषं प्राप्नोति? किं भगवति काचिन्न्यूनता वर्तते यां पूरयति भजनेन भक्तः? नहि, वस्तुतः स एव उदारः यः स्वात्मानम् अधोगतिं न प्रापयेत्, यः तस्योद्धाराय अग्रसरः वर्तते। अनेन प्रकारेण इमे सर्वे चतुर्धा भक्ताः उदाराः सन्ति, परन्तु ज्ञानी तु साक्षात् मम स्वरूपमस्ति, मम मान्यता एव एतादृशी। कुतो हि असौ स्थिरबुद्धिर्ज्ञानी भक्तः सर्वोत्तमगतिस्वरूपः मय्येव संस्थितः अस्ति, अर्थात् सोऽहम् अहं सः, मयि तस्मिन् भक्ते न कोऽपि भेदः। अत उपरि पुनः प्रेरयति,
बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते, वासुदेव सर्वमिति समहात्मा सुदुर्लभः।
बहुवारं पुनः पुनः अभ्यासपथारूढ भजतां भक्तानां अनेकेषां जन्मनामन्ते साक्षात्कारवति जन्मनि ज्ञानी वासुदेवः सर्वम् इत्थं मां भजते। स महात्मा अतिदुर्लभः अस्ति, स कस्यापि वासुदेवस्य प्रतिमां न निर्मापयति, प्रत्युत स्वाभ्यन्तरे एव तस्य परमदेवस्य वासम् अनुभवति। तमेव ज्ञानिनं महात्मानं श्रीकृष्णः तत्त्वदर्शीरूपेण मन्यते। एभिः महापुरुषैः एव बाह्यसमाजे कल्याणसम्भवः दृश्यते। एवं प्रकारकः तत्त्वदर्शी महापुरुषः श्रीकृष्णस्य शब्देषु अतिदुर्लभः अस्ति। यदा श्रेयः प्रेयः च नाम मुक्तिभोगौ द्वौ भगवतः एव मिलतः, तदा तु सर्वैः एकमात्रं भगवतः भजनं करणीयम्। पुनरपि जनाः न भजन्ते कस्मात्? श्रीकृष्णस्य एव शब्देषु
कामैस्तैस्तैर्हितज्ञानाः प्रपद्यन्तेऽन्यदेवताः तन्तन्नियममास्थाय प्रकृत्या नियताः स्वया।
एष तत्त्वदर्शी महात्मा अथवा परमात्मा सर्वस्वमस्ति, जनाः नैवं ज्ञातुं पारयन्ति। कुतो हि भोगानां कामनयां सर्वेषां विवेकः अपहृतः, अत एव ते स्वप्रकृतिप्रभावतः तथा जन्मजन्मान्तरार्जित संस्कारसंस्कृतस्वभावप्रेरितः मत्तः परमात्मनः भिन्नान् अपरदेवान् तथा तदर्चनप्रचलितनियमान् समाश्रयन्ति। अत्र अन्यदेवस्य प्रसङ्गः प्रथमवारम् आयातः।
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।
य य कामनायुक्तः भक्तजनः यं यं देवं श्रद्धयार्चितुं वाञ्छति, अहं तस्य देवस्य प्रति तस्य भक्तस्य श्रद्धां स्थिरयामि। अहं स्थिरं करोमि श्रद्धां, कुतो हि देवता नामकं किमपि अपरं वस्तु चेत् स्यात् तदा तद्देवता एव श्रद्धा प्रतिष्ठां कुर्यात्।
सतया श्रद्धया युक्तः तस्याराधनमीहते लभते च ततः कामान् मयैव विहितान्वितान्।
सः पुरुषः तच्छ्रद्धया युक्तो भूत्वा तस्य देवविग्रहस्य पूजने तत्परः भवति। तद्देवतायाश्च माध्यमेन मम द्वारैव निर्मितान् अभीष्टभोगान् निःसन्देहं प्राप्नोति। भोगं कः ददाति? अहमेव ददामि। तस्य श्रद्धायाः परिणामः भोगः, न तु कस्यापि देवस्य अनुदानम्। किन्तु सफलं तु प्राप्नोति एव, तदत्र का हानिः? अत उपरि ब्रवीति योगेश्वरः कृष्णः।
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसां देवां देवयजो यान्ति मद्भक्ता यान्ति मामपि।
परन्तु तेषाम् अल्पमतीनां तत्फलं नश्वरमस्ति। अद्य प्राप्तं फलं शनैश्चनै भोगद्वारेण विनष्टं भविष्यति, अत एव नश्वरमस्ति। देवतानां पूजकाः देवान् प्राप्नुवन्ति, अर्थात् देवाः अपि नश्वराः। देवतातः समारभ्य यावन्मात्रं जगत् तत्सर्वं परिवर्तनशीलं मरणधर्मशीलञ्च अस्ति। मम भक्तः मामेव लभते। यः अव्यक्तः अस्ति नैष्ठिकीं परमशान्तिं प्राप्नोति। तृतीयाध्याये श्रीकृष्णेनोक्तं यत् यूयं यज्ञद्वारा दैवीसम्पदः समुन्नतिं कुरुत। यदा दैवीसम्पदेधिष्यते तदा युष्माकम् उन्नतिः भविष्यति। इत्थं क्रमशः उन्नत्युपरि उन्नतिं कुर्वन् परमश्रेयः प्राप्स्यथ। अत्र देवता तस्याः दैवीसम्पदः समूहः अस्ति, येन परमदेवपरमात्मनः देवत्वम् अर्जते। दैवीसम्पदस्ति मोक्षाय, यस्य षड्विंशतिलक्षणानां वर्णनं गीतायाः षोडशतमे अध्याये कृतं वर्तते। देवता हृदयान्तराले परमदेव परमात्मनः देवत्वम् अर्जितकारकाः सद्गुणाः समुच्यन्ते। आसीत् तु इदम् अभ्यन्तरस्य वस्तु, किन्तु कालान्तरे जनाः आभ्यन्तरस्थं वस्तुं बाह्यक्षेत्रे द्रष्टुम् आरेभिरे। प्रतिमाः मूर्तयश्च निर्मितवन्तः, कर्मकाण्डस्य रचनां कृतवन्तः, यथार्थतः बहुदूरं पलायिताः। श्रीकृष्णः एतेषां निराकरणं चतुर्भिः श्लोकैः कृतवान्। गीतायां प्रथमवारम् अपरदेवानां नामग्राहं कुर्वन् समकाले एव कथितवान् यद् देवाः भवन्ति एव नहि। जनानां श्रद्धा यत्र नमति तत्र तत्र अहं तेषां श्रद्धां पोषयामि, फलञ्च अहमेव ददामि। तत्फलमपि नश्वरमस्ति, फलानि नश्यन्ति, देवाः नश्यन्ति, तेषाम् अर्चकाः अपि विनश्यन्ति। येषां विवेकः नष्टः भवति ते मूढधियः जनाः अन्यान् देवान् पूजयन्ति। श्रीकृष्णस्तु कथयति, विभिन्नान्यदेवानां पूजनविधानम् एव अस्ति अयुक्तिसङ्गतम्।
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम बुद्धयः, परं भावमजानन्तो ममाव्ययमनुत्तमम्।
यद्यपि यदा देवानां नामोपरि किमपि वस्तु अस्ति एव नहि, अपरदेवार्चनात् फलमपि नश्वरं, तथापि जनाः मां न भजन्ति। कुतो हि बुद्धिहीनपुरुषाः नाम येषां ज्ञानं कामनाभिः अपहृतं वर्तते, ते मां सर्वोत्तमम् अविनाशिनं परमप्रभावयुक्तं परमतत्त्वं सम्यक् न जानन्ति। अत एव ते मूढाः माम् अव्यक्तं व्यक्तभावप्राप्तं जानानः मां मनुष्यं मन्यन्ते। अर्थात् श्रीकृष्णः अपि मानवशरीरधारी योगेश्वरः आसीत्। यः स्वयं योगी भवेत् तथा अन्येभ्यः अपि योगप्रदानस्य सामर्थ्यं यस्मिन् स्यात् स योगेश्वरः। साधनायाः साधुपथमारुह्य महापुरुषाः अपि परमभावे संस्थिताः भवन्ति। पुनरपि कामनाभिः विवशाः मन्दबुद्धयः पुरुषाः तं साधारणव्यक्तिरूपेण मन्यन्ते। ते कल्पयन्ति यथा अहम् उत्पन्नः तथैव अयमपि, पृथक्व भगवान्, तेषां वराकाणां दोष एव कः। ते दृष्टिपातं कुर्वन्ति तदा शरीरमेव दृष्टिपथायते। ते महापुरुषस्य स्वरूपं कथं न द्रष्टुं शक्नुवन्ति। अत उपरि कृष्णकथनम्।
नाहं प्रकाशः सर्वस्य योगमाया समावृतः, मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।
सामान्यमनुष्यस्य कृते मायैका जवनिका अस्ति, यस्यान्तराले परमात्मा सर्वदा तिरोहितो वर्तते। योगसाधनां परामृश्य अत्र प्रवर्तते। अतः परं योगमाया अर्थात् योगक्रिया अपि एकम् आवरणम् अस्ति। योगस्य अनुष्ठानसम्पादनानन्तरम् योगस्य पराकाष्ठारूपायाः योगारूढतायाः समायाते सति स तिरोहितः परमात्मा विदितो भवति। योगेश्वरः कथयति, यदहं स्वमायया ढौकितोऽस्मि, केवलं योगस्य परिपक्वावस्थाङ्गतः एव मां पश्यति। अहं सर्वेभ्यः प्रत्यक्षं नास्मि, अत एव अयम् अज्ञानी पुरुषः माम् अजम् अव्यक्तम् अविनाशिनं शाश्वतं न जानाति। अर्जुनः अपि आत्मवत् कृष्णं मनुष्य इति जानाति स्म। अग्रे दृष्टिप्रदानानन्तरम् अर्जुनः अनुनयं विनयं करोति, प्रार्थयते च। वस्तुतः अव्यक्तस्थितमहापुरुषं परिचेतुं वयम् अन्धाः।
वेदाहं समतीतानि वर्तमानानि चार्जुन, भविष्याणि च भूतानि, मां तु वेद न कश्चन।
अर्जुन, अहम् अतीतान् वर्तमानान् भविष्ये सम्भवान् सम्पूर्णप्राणिनः सम्यक् जानामि, परन्तु मां न कोऽपि जानाति, कस्मान्न ज्ञातुं शक्नोति?
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत, सर्वभूतानि सम्मोहम् सर्गे यान्ति परन्तप।
भरतवंशोद्भवार्जुन, इच्छाद्वेषयोः रागादिद्वेषद्वन्द्वयोः जनितमोहप्रभावेण संसारस्य सर्वे प्राणिनः बहुमोहप्रभाविताः दृश्यन्ते, अत एव मां न जानन्ति। तर्हि किम् कोऽपि न ज्ञास्यति? कथयति योगेश्वरः श्रीकृष्णः।
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां, ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।
परन्तु पुण्यं कर्म नाम यत् संसृतेरन्तं कर्ता, यस्य नामास्ति कार्यं कर्म नियतकर्म, यज्ञस्य प्रक्रियां मुक्त्वा वारं वारम् उपदिष्टं तत्कर्म, तेन कर्तृणां येषां भक्तानां पापं विनष्टं, ते रागद्वेषादिद्वन्द्वमोहात् सम्यक् मुक्ताः भूत्वा, व्रते दृढाः भूत्वा मां भजन्ते। किमर्थं भजन्ते?
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये, ते ब्रह्म तद्विदु कृत्स्नम् अध्यात्मं कर्म चाखिलम्।
ये भक्ताः मम शरणमागत्य जरामरणाभ्यां मुक्तिं प्राप्तुं प्रयतन्ते, ते पुरुषाः तद् ब्रह्म सम्पूर्णमध्यात्म सम्पूर्णं कर्म जानन्ति। अस्मिन् क्रमे
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः, प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।
यः पुरुषः साधिभूतं साधिदैवं तथा साधि यज्ञं माम जानाति स एव पुरुषः मयि समाहित चित्तः माम जानाति, मयि स्थितः भवति, सदैव मह्यं प्राप्तः भवति। षड्विंशतितमे सप्तविंशतितमे श्लोके कथितवान् कृष्णः यत् माम कोपि न जानाति, कुतो हि ते सन्ति मोहग्रस्ताः, किन्तु ये तन्मोहात् आत्मानं मोचयितुं प्रवर्तन्ते ते सम्पूर्णं ब्रह्म, सम्पूर्णम् अध्यात्म, सम्पूर्णं कर्म, सम्पूर्णमधिभूतं, सम्पूर्णमधिदैवं, सम्पूर्णमधियज्ञसहितं मां जानन्ति। तथा अस्य सर्वस्य परिणामः अहं सद्गुरुः अस्मि। उक्तस्थितिं गताः जानन्ति, न तु मां कोऽपि जानाति इति न। निष्कर्षः: अस्मिन् सप्तमाध्याये योगेश्वरेण कृष्णेन उदीरितं यत् अनन्यभावेन समर्पितः भूत्वा मदाश्रितो भूत्वा च यः योगे लगति सः समग्ररूपेण मां जानाति। मां ज्ञातुं सहस्रेषु कश्चिद् विरल एव प्रयतते, प्रयतमानेषु च कश्चिद् विरलः एव मां जानाति। स मां पिण्डरूपेण एकदेशीयं न, प्रत्युत सर्वत्र व्याप्तं पश्यति। अष्टधा मम जडप्रकृतिः अस्ति, एतासु अन्तराले जीवरूपा मे चेतनप्रकृतिः अस्ति। अनयोः जडचेतनप्रकृत्योः सहायेन अखिलं जगत् स्थिरमस्ति, तेजो बलञ्च मम द्वारेणैव वर्तेते। रागकामाभ्यां निर्मुक्तं बलं तथा धर्मानुकूलकामनाप्यहमेवास्मि। सामान्यरूपेण सर्वाः कामनाः सन्ति वर्जिताः, किन्तु मदर्था कामना समीचीना, तां कामनां कुरु। एतादृश्याः कामनायाः समुदायः मम प्रसादः ज्ञेयः। केवलं परमात्मानं प्राप्तुं कामना धर्मानुकूला कामनास्ति। श्रीकृष्णेनोक्तं यदहं त्रिगुणातीतः परमस्य स्पर्शं कृत्वा परमभावे स्थितोऽस्मि, किन्तु भोगासक्ताः मूढाः पुरुषाः मां न भजित्वा अन्येषां देवानाम् उपासनां कुर्वन्ति। यदा हि देवतानामधारकं किमपि वस्तु नास्ति कुत्रापि, प्रस्तरे वृक्षे जले च ते यस्यार्चनामिच्छन्ति तस्मिन्नर्चने तेषां श्रद्धाम् अहमेव पुष्णामि, तस्य व्यवधाने स्थितः अहमेव फलं ददामि। कुतो हि न तत्र कापि देवता न च तस्याः अधिकारे कोऽपि भोगः। जनाः मां साधारणं पुरुषं मन्वानाः न भजन्ति, कुतो हि योगप्रक्रियया अहं समावृतः अस्मि। अनुष्ठानं कुर्वन्तः कुर्वन्तः योगमायावरणभेदकाः मां शरीरधारिणम् अपि अव्यक्तरूपेण जानन्ति। मम भक्ताः चतुर्विधाः, अर्थार्थी, आर्तः, जिज्ञासुः, ज्ञानी च। चिन्तनं कुर्वन्तः कुर्वन्तः अनेकजन्मानामन्ते अन्तिमे जन्मनि परमात्मतत्त्वप्राप्तिकर्तारः ममैव स्वरूपम्, अर्थात् अनेकजन्मनि चिन्तनं कृत्वा तद्भगवत्स्वरूपं लभन्ते। रागद्वेषयोर्मोहाक्रान्तो मनुष्यः मां कदापि न जानाति, किन्तु रागद्वेषयोः मुक्तः भूत्वा यः नियतकर्मणः नाम यत् संक्षेपतः आराधना कथ्यते तच्चिन्तनं कुर्वाणः जरामरणाभ्यां मुक्तिमिच्छन् प्रयत्नशीलः सः पुरुषः माम् सम्यक् रूपेण जानाति। ते सम्पूर्णं ब्रह्म, सम्पूर्णम् अध्यात्म, सम्पूर्णम् अधिदैवम्, सम्पूर्णं कर्म, सम्पूर्णयज्ञसहितं माम् जानन्ति। ते मयि प्रवेशं कुर्वन्ति, अन्तकाले मामेव जानन्ति, अर्थात् ते कदापि न विस्मरन्ति। अस्मिन् अध्याये परमात्मनः समग्रबोधस्य विवेचनमस्ति। अतः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे समग्रबोधः नाम सप्तमोऽध्यायः इति श्रीमत्परमहंसपरमानन्दस्य शिष्येण स्वामिना अडगडानन्दकृते श्रीमद्भगवद्गीतायाः यथार्थगीताभाष्ये समग्रबोधः नाम सप्तमोऽध्यायः। हरिः ॐ तत्सत्।
Buy now and make no payments until fall. That's right. At Jeff Weiler's Columbus Auto Mall, drive today with no down payment and no payments for 120 days. Whether it's a car, truck, or SUV, why wait? Shop hundreds of vehicles, all with no payments till fall. Hurry into the Jeff Weiler Columbus Auto Mall, where the deals won't wait and neither should you. Find us on Gender Road or jeffweilercolumbusautomall.com.